इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रोक्तवान् यत् पश्चिम एशियायां वर्धमान संघर्षस्य मध्येऽपि भारतं विश्वे मान्यता प्राप्त विश्वसनीय राष्ट्ररूपेण तिष्ठति। ह्यः नवदिल्लीनगरे एनएक्सटी सम्मेलनं सम्बोधयन् श्रीमोदी अवदत् यत् क्षेत्रे समाह्वानपूर्णस्थितावपि देशः स्थिरः विकासशीलः च वर्तते।
21वीं सदी का एक कालखंड न भूतो न भविष्यति जैसा है। एक तरफ युद्ध की विभीषिका है, सप्लाई चेन फिर से तहस नहस हो रही है, संयुक्त राष्ट्र जैसी वैश्विक संस्थाओं की प्राथमिकता पर सवालिया निशान लग रहे हैं और ऐसे कालखंड में हमारा भारत इन विपरीत परिस्थितियों में भी आगे बढ़ रहा है। आज दुनिया इतिहास के जिस महत्वपूर्ण पड़ाव पर खड़ी है, उस पड़ाव पर जिस देश का नाम सबसे ज्यादा चर्चा में है, वो है भारत।
श्री मोदी अवदत् यत् पश्चिम एशियायां युद्धस्य कारणेन आपूर्ति श्रृंखलायां व्यत्ययस्य निवारणाय सर्वकारः स्थितिं निकटतया निरीक्षते। ऊर्जाक्षेत्रे सम्बद्धानां आह्वानानां निवारणाय सर्वकारस्य प्रतिबद्धतां पुनः पुष्टिं कृत्वा सः अवदत् यत् तैलस्य उत्पादनं प्रोत्साहयितुं ऊर्जा प्रदेशस्य विस्तारं कर्तुं क्षेत्रे आत्मनिर्भरतां सुदृढां कर्तुं च प्रयत्नाः क्रियन्ते। प्रधानमन्त्री श्रीनरेन्द्रमोदी पश्चिम एशिया क्षेत्रस्य गभीरस्थितेः विषये चर्चां कर्तुं ईरान राष्ट्रपतिना मसूद पेजेश्कियन इत्यनेन सह वार्तालापं कृतवान्। सामाजिक माध्यम सन्देशे श्रीमोदी अवदत् यत् परिस्पन्दस्य वर्धनं नागरिकाणां जीवहानिः अपि च नागरिक मूलसंरचनायाः क्षतिः उत्पादयितुम् इत्यादिषु विषयेषु सः गभीरां चिन्ताम् अभिव्यक्तवान्। प्रधानमन्त्रिणा उक्तं यत् वस्तूनां ऊर्जायाः च अबाधित आयातागमनस्य आवश्यकताया सह भारतीय राष्ट्रियाणां सुरक्षा भारतस्य सर्वोच्च प्राथमिकता वर्तते। सः भारतस्य शान्ति स्थिरतायाः प्रतिबद्धतां पुनरुक्तवान्। संवादस्य कूटनीतेश्च मार्गस्य आग्रहं च कृतवान्। केन्द्रीय पेट्रोलियम एवं प्राकृतिक गैस मंत्री हरदीप सिंह पुरी ह्यः लोकसभायां पश्चिम एशियायां प्रचलित संघर्षात् उत्पद्यमानस्य वैश्विक ऊर्जा प्रदान व्यत्ययस्य प्रतिक्रिया रूपेण सर्वकारेण कृतानां कार्याणां विषये वक्तव्यं दत्तवान्। सः अवदत् यत् देशस्य अपरिष्कृत तैलस्य स्थितिः सुरक्षिता अस्ति, तथा च एलपीजी इत्यस्य द्रव पेट्रोलियम गैस इंधनस्य आंतरिक आपूर्तिः पूर्णतया सुरक्षिता वर्तते। सः अवदत् यत् त्रयस्त्रिंशत् कोटि परिवारेभ्यः विशेषतः निर्धनेभ्यः विपन्नजनेभ्यश्च एलपीजी आपूर्तिः अबाधितरूपेण प्रदानं सर्वकारस्य प्राथमिकता अस्ति। मन्त्री अवदत् यत् एलपीजी उत्पादनं 28% वर्धितम् अस्ति, सम्प्रति च अग्रे क्रयणं प्रचलति। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्यारभ्य असमराज्यस्य द्विदिवसीय यात्रायां भविष्यति। अस्मिन् अवसरे प्रधानमन्त्री असमराज्ये 840 कोटि रूप्यकाणां मूल्यस्य बहुविध विकास परियोजनानां आरम्भं करिष्यति। प्रधानमन्त्री अपराह्ने कोकराझारं गत्वा भूमिपूजनं करिष्यति, शिलान्यासं च करिष्यति। 70+5,400 कोटि रूप्यकाणां परियोजनानां उद्घाटनं च करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य गुवाहाटीतः कृषक सम्मान निधेः 23वीं देयराशिं कृषकेभ्यः प्रदास्यति। केन्द्रीय कृषि कल्याण मन्त्री शिवराज सिंह चौहानः अवदत् यत् श्रीमोदी प्रत्यक्ष लाभ हस्तान्तरणद्वारा प्रायः 23,00,000+9 कोटि कृषकाणां बैंक वित्त कोषेषु 40+6,00,000+18,000 कोटि रूप्यकाणि विमोचयिष्यति। लोकसभायाम् अद्य ऐषमः अतिरिक्त अभियाचना अनुदानस्य अग्रिमचर्चा मतदानञ्च भविष्यति। वित्तमन्त्री निर्मला सीतारामन्वर्या सदनस्य चर्चायाः उत्तरं प्रदास्यति। राज्यसभायां ग्रामीण विकास मन्त्रालयस्य कार्यकरणविषये अग्रे चर्चा भविष्यति। इति वार्ताः।